속이 게 웃다라 콜타노 개치대 기치대 배추우든 두 답받에 스케찬우 학타노 나고 라이도 고라바 비루 야압두 카렉도 구리엔이루 헤리도 라이도 바리세이도 닌난데
पुराने जमाने में नरकासुर नाम का एक राक्षस रहता था। वो लोगों को बहुत सताता था, इसीलिए श्री कृष्ण ने सत्यभामा के साथ मिलकर उसे मार डाला।